सुन्दरकाण्डः अथ प्रथमः सर्गः। प्रणम्य सम्यक् पुरुषं पुराणमवर्धतोच्चैर्हनुमान् महाद्रौ लङ्कां दिधक्षन्निवधूमकेतुर्धूमोपमां तत्र ययौ घनौघः लाङ्गूलमाविध्य सरो महर्षं विकुञ्च्य कर्णाववलोक्य लङ्कां गिरावष्टभ्यकरावुताङ्घ्री स उत्पतिष्यन् विरराजवीरः प्राणान् समायम्य समर्जुकायो ध्यायन् स योगी वरघुप्रवीरम् व्यचीकसद्व्यक्तमथात्मतेजः फणा सहस्रं फणिनामिवेशः स्यान्नः पुनर्दर्शनमित्युदीर्य स गद्गदं सन्नगिरः कपीन्द्रान् आह्लादयन् स्माह स मेघघोषः सुमेरुसङ्काशतनुर्हनुमान् रामस्य भूम्नः शरवत्वरेयं प्रेक्षेय सीतामधुनैव नो चेत् लङ्कामहं पद्मवदानयेयं बद्ध्वा दशास्यं पशुवद्धरेयम् सिन्धूनथान्धूनि वशोषयेयं गिरीन् गुरून् कन्दुकवत्क्षिपेयं सुरासुरानप्यजवज्जयेयं तथापि देवीं ध्रुवमानयेयं समीरवत्सर्वजगद्वलेयं पश्येयमार्यां पुनरानयेयं सत्यं सखायः पुनरेव सत्यं रामैकदा सोऽस्मि हि पावमानिः इत्थं स गां कामदुगां प्रदाय स्वबन्धुतायै सुखजीवनाय निष्पीड्य माहेन्द्रमिमं पदाभ्यां विनिष्पतन्नम्बरमाललम्बे तत्पीडितोद्रिर्भुविमङ्क्षुमग्नो महाभराक्रान्त इव प्लवोप्सु असुस्रवंस्तत्र च धातुधारा विदारिते देह इवास्त्रधाराः पतत्यमुष्मिन् परिलोड्यमानाच्छैलाछिला जालमधः पपात विद्याधराणाञ्च तपस्विनाञ्च स सुन्दरीकं कुलमुत्पपात रामप्रियां रामचरोदिद्रक्षुर्नन्वेकपातेन ततारसिन्धुं तं विस्मयं वक्तुमिव त्रिलोक्यां पर्यानशे तत्र हि सिंहनादः देवोपदेव शिगणा अगण्या वधूयुता विस्मयिनः खमाप्य विकासिभिश्चारुतरुप्रसूनैरपूजयंस्तं नयनाम्बुजैश्च कुतूहलात्यायतलोचनासु सर्वासु तास्वायतलोचनासु वदत्सु सर्वेष्वपि साधु साध्वित्युच्चैर्मुनीन्द्रामुदिता अवोचन् गुणेन सन्धाय गुणार्णवेन रामेण मुक्तोरणपण्डितेन स्वपक्षदक्षः सफलो हनूमान् शरोपमोरीं स्वरते निहन्तुम् अस्योरुवेगैरनुकृष्यमाणा नानानगाश्चन्दनचम्पकाद्याः कृत्वानुयानं सुमनोऽभिसारेर्नमन्ति भक्ता इव वारिपारे उपर्युपर्येन मथोधोधो लसन्ति मेघास्तरसाभिकृष्टाः सिता सिता रक्तरुचश्च यद्वद्धरिप्रवीराः परिवारभूताः निपातवातैः परिलोड्यमानः फेनायमानः सकलोऽपि सिन्धुः आशंक्यते रामय सोम्बुधिर्वापयोम्बुधिर्वेत्यपिहार गौरः द्रोणीकरोत्येष समुद्रमध्यं वेगानिलेनानिलदेवसूनुः सेतुं विधातुं हरिवाहिनीनां पुरैव कुर्वन्निव लक्ष्मरेखाम् इन्द्रध्वजाभं स्फुरति द्युसङ्गिलाङ्गूलमस्याखिलमङ्गलाय तद्वै जयन्तीमिव मेघपालिं दोलायमानामवलोकयध्वं हस्तावुदस्तौ लसतोऽस्य दीर्घौ पीनौ सुवृत्तौ पवमानसूनोः अर्धौ गतौ पर्वतपार्श्वयुग्मात् पञ्चास्यवन्ताविव पन्नगेन्द्रौ शस्त्रं विना शत्रुपुरीमुपैति मत्तो हनुमानिति मास्तु शङ्का नन्वेकवज्रोरिपुमेति वज्रीदशास्य घोरा नखनाम वज्राः सहोदये तामुदयाद्रिशृङ्गेरवी यदि द्वौ नवधातु ताम्रे तर्हि क्षणे ताम्रतरे सुवृत्ते ताम्राननस्यास्य विडम्बयेताम् अर्धोद्गते इन्दुकले इव द्वे दंष्ट्रे अमुष्य स्फटिकस्फुटाभे मद्भक्तिवध्वा स्थिरयोगभाजां सुखाय दुःखाय वियोगभाजां मेरुस्सुरेन्द्रेण सुराचलत्वादच्छिन्नपक्षो द्रवती हनूनम् इति प्रतर्कं तनुते प्रजानां शरीरमस्या तनुहेमधाम अलङ्करोत्यस्य विशालकीर्तेरुरो विशालं वनमालिकेयम् आकाशमाकाशसुरापगेव समुद्रसीमेव भुवोऽवकाशम् विस्तीर्णभावे दशयोजनास्य छायाम्बुधौ तत्त्रिगुणायतेयम् लब्धा कवीन्द्रैरुपमानभूमिर्हनूमतो न ह्यपरा त्रिलोक्याम् सुराधिराजं पतगाधिराजः सुधां जिहीर्षुर्जितवाञ्जवेन प्लवङ्गराजो हि पतङ्गराजं सीतां जिहीर्षुर्जितवान्नवश्यम् को वा नरेन्द्रस्य समानतायां वर्तेत यस्यानिल एव तुल्यः को वा नरेन्द्रस्य समानतायां रामस्य यो भाति कृपालुतायां जयति जगति दिव्यश्रीतनूमान् हनूमानहितमवहितात्मा बाह्यमभ्यन्तरञ्च लसति वसति भूते यस्य चित् ते विचित्रे भुवन भवन पूर्णे रामदेवः सदेति इति श्रीसङ्ग्रह रामायणे सुन्दरकाण्डे रामाङ्के प्रथमः सर्गः।